ओम नमो भगवते वासुदेवाय। अथ सप्तविंशोऽध्यायः। श्री भगवानुवाच। प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः, अविकाराद् कर्तृत्वान् निर्गुणत्वात् जलार्कवत्। स एष यर्हि प्रकृतेर्गुणेष्वभिविसज्जते, अहं क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते। तेन संसारपदवीमवशोभ्येत्य निर्वृतः प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु। अर्थेय विद्यमानेऽपि संसृतिर्न निवर्तते, ध्यायतो विषयानस्य स्वप्नेनर्थागमो यथा। अत एव स नैश्चित्तम् प्रसक्तमसताम् पथि भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्। यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः, मयि भावेन सत्येन मत्कथाश्रवणेन च सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा। यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः, विविक्तशरणश्शान्तो मैत्रः करुण आत्मवान्। सानुबन्धे च देहेऽस्मिन् न कुर्वन्न सदाग्रहम्, ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च। निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः, उपलभ्यात्मनात्मानम् चक्षुषेवार्कमात्मदृक्। मुक्तलिङ्गम् सदाभासमसति प्रतिपद्यते, सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्। यथा जलस्थ आभासः स्थलस्थेनावदृश्यते स्वाभासेन, तथा सूर्यो जलस्थेन दिवि स्थितः। एवम् त्रिविधहङ्कारो भूतेन्द्रियमनोमयैः स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्। भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः। मन्यमानसदात्मानमनष्टो नष्टवन्मृषा, नष्टेऽहङ्करणे द्रष्टा नष्टवित्तैवातुरः। एवम् प्रत्यवमृष्या सावात्मानम् प्रतिपद्यते, साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः। देवहूतिरुवाच। पुरुषम् प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्, अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो। यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः, अपाम्रसस्य च यथा तथा बुद्धेः परस्य च। अकर्तुः कर्मबन्धोऽयम् पुरुषस्य यदाश्रयः, गुणेषु सत्सु प्रकृतेः कैवल्यम् तेष्वतः कथम्। क्वचित्तत्वावमर्शेन निवृत्तम् भयमुल्बणम् अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते। श्रीभगवानुवाच। अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्। ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा, तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्, तिरोभवित्रीशनकैरग्नेर्योनिर्वारणिः। भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः, नेश्वरस्याशुभम् धत्ते स्वेमहिम् निश्चितस्य च। यथाय प्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्, स एव प्रतिबुद्धस्य न वै मोहाय कल्पते। एवम् विदिततत्त्वस्य प्रकृतिर्मयि मानसम्, युञ्जतो नापकुरुत आत्मा रामस्य कर्हिचित्। यदैव मध्यात्मरतः कालेन बहुजन्मना सर्वत्र जात वैराग्य आब्रह्मभुवनान्मुनिः। मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा, निःश्रेयसम् स्वसंस्थानम् कैवल्याख्यम् मदाश्रयम्। प्राप्नोति ह्याञ्जसा धीरः स्वदृशाच्छिन्न संशयः, यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे। यदा न योगोपचिता सुचेतो माया सुसिद्धस्य विसज्जतेऽङ्ग। अनन्यहेतुष्वथ मे गतिः स्यात् आत्यन्तिकी यत्र न मृत्युहासः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।